इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी जर्मनी देशस्य कुलाधिपतिः ओलाफ स्कोल्चः च अद्य नवदिल्ल्यां सप्तमस्य अन्तःसर्वकारी परामर्शस्य IGC इत्यस्य सह अध्यक्षतां करिष्यतः। कुलाधिपतिः स्कोल्चः गतरात्रौ भारतस्य त्रिदिवसीय यात्रायाः कृते नवदिल्ल्यां सम्प्राप्तवान्। अन्तःसर्वकारी परामर्शः एकः समग्रः सर्वकारी रूपरेखा अस्ति, यस्यान्तर्गतम् उभयोः पक्षयोः मन्त्रिणः स्वस्वदायित्वक्षेत्रेषु चर्चां कुर्वन्ति। स्वविचारविनिमयोः परिणामानां विषये प्रधानमन्त्रिणे कुलाधिपतये च प्रतिवेदनानि प्रदास्यन्ति। अद्य उभयोः नेत्रोः मध्ये द्विपक्षीयवार्ता अपि भविष्यति, यत्र सुरक्षा रक्षा सहकार्यं, वर्धितं गहन आर्थिक सहकार्यं, हरितस्थायि विकास सहभागिता, उदीयमानं रणनीतिक प्रौद्योगिक क्षेत्रे सहकार्यादीनां विषये च चर्चा भविष्यति। जर्मन व्यापारस्य 18वें एशिया प्रशांत सम्मेलने अपि उभौ नेतारौ संबोधनं करिष्यतः। आर्थिक प्रकरणानां मंत्रिमंडलीय समित्या 98.7 लाख करोड़ रुपयेकाणां द्वाभ्यां रेल परियोजनाभ्यां कृते स्वीकृतिः प्रदत्ता। प्रथम परियोजनायां नरकटिया गंजतः रक्सौल सीतामणि दरभंगा पर्यन्तं रेलवे संपर्कतायाः द्विविधीकरणं जातम्। तथैव सीतामणि मुजफ्फरपुर खण्डौ अपि तत्र सम्मिलितौ स्तः। अयं मार्गः 45.2 किलोमीटर परिमितं विस्तृतः वर्तते। इयं परियोजना नेपालपूर्वोत्तर भारतयोः सहैव सीमवर्तिक्षेत्रेषु च सम्पर्कतां सुदृढीकरिष्यति। अनेन यात्रिणां कृते गमनागमनं सुकरं भविष्यति, तथैव क्षेत्रस्य सामाजिकार्थिकविकासः अपि भविष्यति। केन्द्रीयमन्त्रिमण्डलस्य उपवेशनानन्तरं नवदिल्ल्यां वार्ताहरान् सूचयन् सूचना एवं प्रसारणमन्त्री अश्विनीवैष्णवः प्रोक्तवान् यत् CCEA इत्यनेन अमरावतीमाध्यमेन एर्लूपलं नम्बुरु इत्यनयोः मध्ये नूतनाय रेलसम्पर्काय स्वीकृतिः प्रदत्ता अस्ति। अस्य विस्तारतावत् 75 किलोमीटर यावत् भविष्यति। न्यायाधीशः संजीवखन्ना भारतस्य अग्रिमः मुख्यन्यायाधीशः नियुक्तः अस्ति। एकस्मिन् सामाजिकसञ्जालीयसन्देशे विधिमन्त्री अर्जुननारामेघवालः अवदत् यत् राष्ट्रपतिः द्रौपदी मुर्मुः मुख्यन्यायाधीशेन DY चन्द्रचूडेन सह परामर्शं कृत्वा न्यायाधीशाय खन्नावर्याय नवम्बरमासस्य 11वें दिनाङ्कात् भारतस्य मुख्यन्यायाधीशरूपेण नियुक्तवती। न्यायाधीशः खन्ना सम्प्रति सर्वोच्चन्यायालयस्य द्वितीयः वरिष्ठतमः न्यायाधीशः अस्ति। सः भारतस्य 51वें मुख्यन्यायाधीशः भविष्यति। न्यायाधीशः खन्ना 25.2 लाख करोड़ रुपयेकाणां मई मासस्य 13वें दिनाङ्के सेवानिवृत्तः भवितुमर्हति। न्यायाधीशः संजीवखन्ना 29.2 लाख करोड़ रुपयेकाणां जनवरी मासस्य 18वें दिनाङ्के सर्वोच्चन्यायालयस्य न्यायाधीशत्वेन उन्नतः अभवत्। वर्तमानमुख्यन्यायाधीशः DY चन्द्रचूडः 22.2 लाख करोड़ रुपयेकाणां नवम्बर मासस्य 9वें दिनाङ्के कार्यभारं स्वीकृतवान् आसीत्। सः अस्मिन् वर्षे November 10th दिनाङ्के सेवानिवृत्तः भविष्यति। भारतस्य ऋतुविभागेन दाना इति चक्रवातस्य मध्यरात्रौ ओडिशा तटस्थस्य भीतरकनिका उद्याने धामरापत्तनक्षेत्रयोः मध्ये प्रवेशस्य पुष्टि कृता। इति वार्ताः।